ऋषयोऽवोचुः सूतसूत महाभाग व्यासशिष्य नमोऽस्तुते तदेव व्यासतो ब्रूहि भस्म माहात्म्यमुत्तमम् तथा रुद्राक्ष माहात्म्यम् नाम माहात्म्यमुत्तमम् तितयम् ब्रूहि सुप्रीत्या ममानन्दय मानसम् सूत उवाच साधु पृष्टम् भवद्भिश्च लोकानाम् हितकारकम् भवन्तो वै महाधन्या पवित्रा कुलभूषणाः येषाम् चैव शिवः साक्षात् दैवतम् परमम् शुभम् सदा शिवकथा लोके वल्लभा भवताम् सदा ते धन्याश्च कृतार्थाश्च सफलम् देहधारणम् उद्धृतम् च कुलम् तेषाम् ये शिवम् समुपासते शिवनाममुखे यस्य सदा शिव शिवेति च पापानि न स्पृशन्त्येव खदिरागारकम् युधा श्रीशिवाय नमस्तुभ्यम् मुखम् व्याहृतेदा तन्मुखम् पावनम् तीर्थम् सर्वपापविनाशनम् तन्मुखम् च तथा यो वै पश्यति प्रीतिमान्नरः तीर्थजन्यम् फलम् तस्य भवतीति सुनिश्चितम् यत्र यत्र सदा तिष्ठेदेतच्छुभतरम् द्विजाः तस्य स्पर्शनमात्रेण वेणीस्नानफलम् लभेत् शिवनाम विभूतिश्च तथा रुद्राश्चैव च एतत्त्रयम् महापुण्यम् त्रिवेणी सदृशम् स्मृतम् एतत्त्रयम् शरीरे च यस्य तिष्ठति नित्यशः तस्यैव दर्शनम् लोके दुर्लभम् पापनाशकम् तद्दर्शनम् यथा वेणी नोभयोरतरम्मना एवम् यो न विजानाति स पापिष्ठो न संशयः विभूतिर्यस्य नोभाले नागे रुद्रावधारणम् नाश्चेशिवमहीवाणी तम् त्यजेदभयम् यथा शैवन्नाम यथा गङ्गा विभूतिर्यमुनामता रुद्राक्षम् विना प्रोक्ता सर्वपापविनाशिनी शरीरे च त्रयम् यस्य तत्फलम् चैकतः स्थितम् एकतो वेणिकायाश्च स्नानयन्तु फलम् बुधैः तदेवम् तुलम् पूर्वम् ब्रह्मणा हितकारिणा समानम् चैव तज्जातम् तस्माद्धार्यम् सदा बुधैः तद्दिनम् हि समारभ्य ब्रह्मविष्णुवादिभिस्वैः धार्यते त्रितयम् तच्च दर्शनात् पापहारकम् ऋषय ऊचुः ईदृशम् हि फलम् प्रोक्तम् नामादित्रितयोद्भवम् तन्माहात्म्यम् विशेषेण वक्तुमर्हसि सुव्रत सूत उवाच ऋषयो हि महाप्राणा सच्चैवा ज्ञानिनाम् वराः तन्माहात्म्यम् विषद्भक्त्या शृणुता धरतो द्विजाः सगूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि भवस्नेहानया विप्राः प्रकाशक्रियरेऽधुना तस्तत्त्रितयमाहात्म्यम् सञ्जानाति द्विजोत्तमाः महेश्वरम् विना सर्वम् ब्रह्माण्डे सदरत्परम् वच्यहम् नाम माहात्म्यम् यथा भक्तिसमासतः शृणुतः प्रीतितो विप्रा सर्वपापहरम् परम् शिवेति नामधावाग्नेर्महापातकपर्वताः भस्मीभवन्ति नायासान् सत्यम् सत्यम् न संशयः पापमूलानि दुःखानि विविधान्यपि शौनकः शिवनामैकनश्यानि नाम नश्यानि सर्वदा स वैदिकस्य पुण्यात्मा स धन्यस्य बुधोमतः शिवनाम जपासक्तो यो नित्यम् भुवि मानवः भवन्ति विविधा धर्मास्तेषाम् सद्यः फलोन्मुखाः येषाम् भवति विश्वासः शिवनाम जपे मुने पातकानि विनश्यन्ति यावन्ति शिवनामतः भुवि तावन्ति पापानि क्रियन्ते सुनरैर्मुनैः ब्रह्महत्यादि पापानाम् राशीनाम् प्रमितान् मुने शिवनाम द्रुतम् प्रोक्तम् नाशयत्यखिलान्नरैः शिवनामतरीम् प्राप्य संसाराद्धिनुवरन्ति ये संसारमूलपापानि तानि नश्यन्ति संशयम् संसारमूलभूतानाम् पातकानाम् महामुने शिवनामकुठारेण विनाशो जायते ध्रुवम् शिवनामामृतम् पेयम् पापदा वानदादितैः पापदावाग्निदप्तानाम् शान्तिरे अर्विना नहि शिवेदिनाम् पीयूष वर्षधारा परिप्लुताः संसारतम मध्येऽपि न शोचन्ति कदाचन शिवनाम्नि महाभक्तिर्जाता येषाम् महात्मना तद्विधानाम् तु सहसा भक्तिर्भवति सर्वथा अनेकजन्मधैर्येण तपसप्तम् मुनीश्वर शिवनाम्नि भवेद्भक्ति सर्वपापापहारिणी यस्या साधारणी शम्भूनाम्नि भक्तिरखण्डिता तस्यैव मोक्षम् सुलभो नान्यस्येति मतिर्मम कृत्वा प्रेक पापानि शिवनाजागदाधरा सर्वपापविनिर्मुक्ता भवत्येव न संशयः भवन्ति भस्मसादृक्षादुदग्धा यथा वने तथा तावन्ति दग्धानि पापानि शिवनामतः यो नित्यम् भस्मभूतात्मा शिवनामजपादरः स तरत्येव संसारो महोरमिशोनक ब्रह्मस्मरणम् कृत्वा हत्वापि ब्राह्मणान् बहून् निलिप्यते नरः पापैः शिवनामजपादरः विलोम
वाक्यवेदानखिला शिवनाम जपपरः संसारतरणोपाय इति पूर्वैर्विनिश्चितम् किं बहुक्त्या मुनिश्रेष्ठा श्लोकेनैव शिवनाम्नो महिमानं सर्वपापवहारम् पापानामरणं शम्भोर्नाम्ना शक्तिः पावने शक्नोति पातकं तावत् कर्तुं नाभिनर क्वचित् शिवनाम प्रभावेण लेभे सद्गतिमुत्तमाम् इन्द्रद्युम्नरपः पूर्वं महापापयुतो मुने तथा काचिद्विजायोषा सौ मुने बहुपापिनी शिवनाम प्रभावेण लेभे सद्गतिमुत्तमाम् इत्युक्तं वो द्विजश्रेष्ठा नाम माहात्म्यमुत्तमम् शृणुध्वं भस्म माहात्म्यं सर्वपापप्रमाशनम् सूत उवाच द्विविधं भस्म संप्रोक्तं सर्वमङ्गलदं परं तत्प्रकारमहं वक्ष्ये सावधानतया शृणु एकं जेयं महाभस्मं द्वितीयं स्वल्पसंज्ञकं महाभस्म इति प्रोक्तं भस्म नानाविधं परं तद्भस्म त्रिविधं प्रोक्तं श्रौतं स्मार्तं च लौकिकं भस्मैव स्वल्पसंज्ञाहि बहुधा परिकीर्तितं श्रौतं भस्म तथा स्मार्ते द्विजानामेव कीर्तनम् अन्येषामपि सर्वेषामपरं भस्म लौकिकं धारणं सम्मतः प्रोक्त द्विजानां मुनिपुङ्गवैः केवलं धारणं जेयम् अन्येषां मन्त्रवर्जितम् आग्नेयमुच्यते भस्म दग्धगो भयसम्भवम् तदपि द्रव्यमित्युक्तं त्रिपुण्डस्य महामुने अग्निहोत्रोत्थितं भस्म सङ्ग्राह्यं वामनीषिभिः अन्ययज्ञोत्थितमवापि पिपुण्डस्य च धारिणे अग्निरित्यादि निर्मन्त्रैर्जाबाले पुनिषद्गतैः शब्दभिर्धूलनं कार्यं भस्मना सजलेन च वर्णानामाश्रमाणां च संगतो संगतोऽपि वा त्रिपुण्ड्रादूलनं प्रोक्तं जाबालैरादरेण च भस्मनोद्धूलनं चैव यदा त्रियत्त्रिपुण्डकं प्रमादादपि मोक्षार्थी न च देतिविश्रुतिः शिवेन विष्णुना चैव तथा त्रियत्त्रिपुण्डकम् उमादेवी च लक्ष्मीश्च वाचान्याभिश्च नित्यशः ब्राह्मणैः ैर्वैश्यै शूद्रैरपि च सङ्करैः अपभ्रंशैर्धितं भस्म त्रिपुण्ड्रोद्धूलनात्मनः उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये तेषां नास्ति निर्मुक्तः संसारात् जन्मकोटिभिः उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये तेषां नास्ति शिवज्ञानं कल्पकोटिशतैरपि उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये तेषामाचरितं सर्वं विपरीतफलाय हि महापातकयुक्तानां जन्तूनां सर्वविद्विषां त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं मुने शिवाग्निकार्य कृत्वा गुर्याद्रयाच्यते सर्वपापैस्तु सृष्टेन भस्मना नरः स्थितेन भस्मना कुर्याद्विसंध्यं चतुर्मुण्डकं सर्वपापि निर्मुक्तः शिवेन सह मोदते स्थितेन भस्मना कुर्याल्ललाटे तु त्रिपुण्ड्रकं योऽसावान् भूतानि हि लोकानात्तो मृगो भवेत् अकृत्वा भस्मना स्नानं न जपेत् वै षडक्षरं त्रिपुण्ड्रं च रचित्वा तु विधिना भस्मना जपेत् अदयो वाधमो वापि सर्वपापान्वितेऽपि वा उषः पापान्वितो वापि मूर्खो वा पतितोऽपि वा यस्मिन् देशे वसेन्नित्यं भूतिशासनसंयुतः सर्वतीर्थैश्च क्रतुभिः सान्निध्यं क्रियते सदा त्रिपुण्ड्रसहितो जीवः पूजः सर्वैसुरासुरैः पापान्वितोऽपि शुद्धात्मा किं पुनः श्रद्धया युतः यस्मिन् देशे शिवज्ञानी भूतिशासनसंयुतः गतो यदृच्छयाद्यापि तस्मिं तीर्थाः समागताः बहुमात्र किमुक्तेन धैर्यं भस्म सदा बुधैः लिङ्गार्चनं सदा कार्यं जप्यो मन्त्रषडक्षरः ब्रह्मणा विष्णुना वापि रुद्रेण मुनिभिस्सुरैः भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् इति वर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि च पापात् सर्वत्रिपुण्ड्रस्य धारणस्योऽपि मुच्यते ये भस्मधारिणं त्यक्त्वा कर्म कुर्वन्ति मानवाः तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः तेनावीतं गुरोः सर्वं तेन सर्वमनुष्ठितं येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतं ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनं तेषां चण्डालतो जन्म ब्रह्मनुन्यपश्चिता मानस्तोकेन मन्त्रेण मन्त्रितं भस्मधारयेत् ब्राह्मणक्षत्रियश्चैव प्रोक्तेष्वङ्गेषु भक्तिमान् वैश्यास्त्रियम् ऐक्येन शुद्धं मञ्जाक्षरेण तु अन्य यासां विधवास्त्रीणां विधि प्रोक्तश्च शूद्रवत् पञ्च ब्रह्मादि मुनिभिर्गृहस्थस्य विधीयते त्र्यम्बकेन मनुना विधिरै ब्रह्मचारिणः अघोरेणाथ मुनिना विनिस्मृतः यतेस्तु प्रणवेनैव त्रिपुण्ड्रादीनि कारये अतिवर्णाश्रमे नित्यं शिवोऽहं भावनात्परं शिवयोगी च नियतामीशानेनापि धारये न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् अन्यैरपि यथा देवे सदेति शिवशासनम् भस्मानानेन यावन्तः कणाः स्वाङ्गे प्रतिष्ठिताः तावन्ति शिवलिङ्गानि ततो धृत्ते हि धारकाः ब्राह्मणा क्षत्रिया वैश्या शूद्राश्चापि सुसङ्गताः त्रयोदविधवा बाला प्राप्ता पाखण्डिकास्तथा ब्रह्मचारी गृहीवन्यः सन्न्यासी वा व्रती तथा नार्यो भस्मत्रिपुण्ड्राङ्गा मुक्ता एव न संशयः ज्ञानाज्ञानधृतो वापि वह्निना समोजः ज्ञानाज्ञानधृतं भस्म पावयेत् सकलन्नरं नाश्नीयाचलमन्नमल्पविवास्माच्चरित्या विना भुक्त्वा वाथ गृहीवनीपतियते वर्णो न तथा शङ्करः एवोभुङ्गरकरं प्रयासदा गायत्रि जापेन वर्णानान्तु यतेस्तु मुख्यप्रणवाज्जापेन मुक्तिर्भवेत् त्रिपुण्ड्रये विन्दन्ति निन्दन्ति शिवमेव ते धारयन्ति च ये भक्त्या धारयन्ति तमेव ते दिग्भस्मरयितं बालं दिग्भ्याम शिवमालयं दिग्नीशार्चनं जन्म दिग्विद्या शिवमाश्रयां ये निन्दन्ति महेश्वरं ते महाभूतं हरं ये निन्दन्ति त्रिपुण्डधारणकरं दोषस्तु तद्दर्शने ते वै शङ्करशूकरासुरकरश्चक्रोश्रुतोपमा जाता एव भवन्ति पापपरमास्ते नारका केवलम् ते दृष्ट्वा शिशिभास्करौ निशिदिने स्वप्ने विनो केवलम् पश्यन्तु श्रुतिरुद्रशूकजपतो मुच्येत तेनादृताः तत्सम्भाषणतो भवेद्भिनरकम् निस्तारमाना स्थितम् ये भस्मादिविधारणम् विपुरुषम् निन्दन्ति मन्दाहिते न तान्त्रिकस्वधिकृतो नोर्मपुण्ड्रधरौ मुने सन्ततश्चक्रचिह्नोत्र शिव यद्ये बहिष्कृतः तत्रैते बहवो लोका बृहज्या बालचोदिताः ते विचार्या प्रयत्नेन ततो भस्मरतो भवेत्
यच्चन्दनैश्चन्दनैर्भस्मना विभूतिभालोपरि किञ्चनापि धार्यं सदा नो यदि सति बुद्धयः तेभिस्त्रिपुण्डमङ्गलावधिधारणीयं भस्मद्विजादिभिरथो निमिद्वाभिरेवं तद्वत् सदाश्रमवतां विशदा विभूतिर्धार्यापवर्गफलदा सकला गहन्त्री त्रिपुण्डं कुरुते यस्तु भस्मनाविधिपूर्वकं महापापकसङ्घातैर्मुच्यते चोपपातकैः ब्रह्मचारी गृहस्थी वा वानप्रस्थोऽथ वा यतिः ब्रह्मक्षत्राश्च विश्रुद्धास्तथान्ये पतिता धमाः उद्धूलनं त्रिपुण्ड्रं च धृत्वा शुद्धा भवन्ति च भस्मनो विधिना सम्यक् परपराशिव्याय च भस्मधारी विशेषेण स्त्रीगोहत्या संशयः परद्रव्यापहरणं परधाराभिमर्शनं परनिन्दापरक्षेत्र हरणं परपीडनं स्वस्यारामादिहरणं गृहदादादि कर्म च गोहिरण्यमहिष्यादितिरकम्बलवाससाम् अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः दाशवेश्यावतङ्गेषु वृषदीषु नटीषु च गरस्वलासु कन्यासु विधवासु च मैथुनं मांसचर्मरसादीनां लवणस्य च विक्रयः पैशून्यं कूडवादश्च साक्षिमिथ्याभिलाषिणाम् एवमादीन्यसङ्ख्यानि पापानि विविधानि च सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणा शिवद्रव्यापहरणं शिवनिन्दा च कुत्र निन्दा च शिवभक्तानां प्रायश्चित्तेन शुध्यति रुद्राक्षं यस्य गात्रेषु ललाटेषु त्रिपुण्ड्रकं स चाण्डालोऽपि सम्पूज्यो वर्णवर्णो नमोत्तमः यानि तीर्थानलोकेऽस्मिन् गङ्गाद्याश्वरिदर्शयाः स्नातो भवति सर्वत्र ललाटेतु त्रिपुण्ड्रकं सप्तकोटिमहामन्त्रा पञ्चाक्षरपुरसराः तथान्ये कोटिशो मन्त्रा शैव कैवल्यहेतवः अन्ये मन्त्रांश्च देवानां सर्वसौख्यरामुने ते सर्वे तस्य वश्यासुर्यो विभर्ति त्रिपुण्ड्रकं सहस्रं पूर्वजातानां सहस्रं जनयेषदां सोऽंशजानां ज्ञातीनाम् उद्धरेत्यस्त्रिपुण्ड्रकं इह भुक्त्वा किला भोगान् दीर्घायुष्याधिवर्जितः जीवितान्ते च मरणं सुखेनै नैव प्रपद्यते अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यवपुः शिवं दिव्यं विमानमारुह्य दिव्यस्त्रिदशसेवितं विद्याधराणां सर्वेषां गन्धर्वाणां महौजसाम् इन्द्रादिलोकपालानां लोकेषु च यथाक्रमं भोक्त्वा भोगान् सुविपुलान् प्रदेशानां पदेषु च ब्रह्मणः पदमासाद्य तत्र कन्याशतं भ्रमेत् तत्र ब्रह्मायुषोमानं भुक्त्वा भोगाननेक्षा विष्णुलोके लभेत् भोगं यावत् ब्रह्मशदादया शिवलोकं ततः प्राप्य लब्धेष्टं कामोक्षयं शिवसायुज्यमाप्नोति संशयो नात्र जायता सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः इदमेव हि निर्णीतं वरं श्रेयस्त्रिपुण्डरं विभूतिनिर्देयो वै ब्रह्मणः सौन्यजातकः प्रयाति नरके घोरे यावत् ब्रह्मा चतुर्मुखः श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुराचने धृतस्त्रिपुण्डः पूतात्मा मृत्युञ्जयति मानवः जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि मन्त्रस्नानं हरेत् पापं ज्ञानस्नाने परं पदं सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलं तत्फलं समवाप्नोति भस्मस्नानकरो नरः भस्मस्नानं वरं तीर्थं गङ्गास्नानं दिने दिने भस्मरूपे शिवः साक्षात् भस्मत्रैलोक्यपावनं तदर्दूरं न तद्ज्ञानं न तद्दानं जपेन सा त्रिपुण्ड्रेण विनायेन विप्रेण यदनुष्ठितं वानप्रस्थं कन्यानां दीक्षाहीनानां तथा मध्याह्नप्राकलैर्युक्तं परतो जलवर्जितम् एवं त्रिपुण्ड्रं यः कुर्यान् नित्यं नियतमानसः शिवभक्तस्य विज्ञेयो भुक्तिं मुक्तिञ्च विञ्जति यत्यागेनैव रुद्राक्ष एकोऽपि बहुपुण्यदः तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितो यदि एवं त्रिपुण्ड्रमाहात्म्यं समासात् कथितं मया रहस्यं सर्वजन्तूनां गोपनीयमिदं त्वया तिस्रोरेषा भवेत्येव स्थानेषु मुनिपुङ्गवाः ललाटादिषु सर्वेषु यशोक्षेषु हृदयधुनै भ्रुवोर्मध्यं समारभ्य यावदन्तो भवेद् भ्रुवो तावत् प्रमाणं सन्धार्य ललाटं च त्रिपुण्ड्रकं मध्यमानामिकाङ्गुल्या मध्ये च प्रतिलोभतः अङ्गुष्ठेन कृता रेखा त्रिपुण्डाख्या विधीयते मध्येऽङ्गुलिविरादाय तिसृभिर्भस्मयत्नतः त्रिपुण्ड्रं धारये भक्त्या मुक्तिपरम्परं तिग्णां चापि रेखानां प्रत्येकं नवदेवताः सर्वयागेषु आवख्ये सावधानतया शृणु अकारोकारपत्याग्नि भूर्धर्मस्य रजोगुणः ऋग्वेदश्च क्रियाशक्ति प्रातःसवनमेव च महादेवस्य रेखाया प्रथमाया च देवता विज्ञेया मुनिशार्दुला शिवदीक्षापरायणैः उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा मध्यञ्जनं च सवनमिच्छाशक्त्यन्तरात्मने महेश्वरश्च रेखाया द्वितीयायाश्च देवता विज्ञेया मुनिशार्दुला शिवदीक्षापरायणैः मकारहवनीयो च परमात्मा तमो दिवो ज्ञानशक्तिः सामवेद तृतीयं सवनं तथा शिवश्चैव च रेखाया तृतीयायाश्च देवता विज्ञेया मुनिशार्दुला शिवदीक्षापरायणैः एवं नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवताः त्रिपुण्ड्रं धारयेच्छुद्ध भुक्तिमुक्तिं च विन्दति इत्युक्ता स्थानदेवाश्च सर्वाङ्गेषु मुनीश्वरः तेषां सम्बन्धिनो भक्त्या स्थानानि शृणुसाम्प्रतं द्वात्रिंशत्स्थानके वाद घोषस्थानके पिता अष्टस्थाने तथा चैवं पञ्चस्थाने पितान्यसे उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा नासावक्तगलेष्वेव हस्तयोर्भयोस्ततः पूर्वरे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः नाभौमुष्मद्वये चैव मूर्वे च जानुनि जङ्गाद्वये पदद्वन्द्वे द्वादृशस्थानमुत्तमम् अग्न्यं भूवायुदिग्देशादिक्पालान्यसु धराध्रुश्च सोमश्च आपुष्टिवारिणोल्लः प्रत्युपश्चराजश्च वसवोष्टौ प्रकीर्तिताः एतेषां नाम मात्रेण त्रिपुण्ड्रं धारयेत् बुधा कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः शीर्षके च लाटे च कण्ठे च सद्वये भुजे पूर्पणे मणिबन्धे च हृदये नापि पार्श्वे पृष्ठे चैव प्रतिष्ठाय यजेन्द्राभिदेवते शिवं शक्तिं तथा रुद्रमीशं नारदमेव च वामादिनो शक्तिश्च एता षोडश देवताः नासत्योदस्त्रयश्चैव अश्विनौ द्वौ प्रकीर्तितौ अथवा मूर्तिकेशे च कर्णयोर्वदने तथा बाहुद्वये च हृदये नाभ्यामुरुगे तथा जानुद्वये च पदयो पृष्ठभागे च षोडश शिवश्चन्द्रश्च रुद्रः को विघ्नेशो विष्णुरेव वा भीष्टैव हृदये शम्भुस्तथा नाभौ प्रजापतिः नागश्च नागकन्या च उभयो ऋषिकन्यकाः पादयोश्च समुद्राश्च तीर्था पृष्ठे विशारदः इत्येवं षोडशस्थानमष्टस्थानमधोच्यते गुह्यस्थानं ललाटश्च कर्णद्वयमुत्तमम् अंशयुग्मं च हृदयं नाभिरित्येवमष्टकम् ब्रह्मादर्शयः सप्त देवताश्च प्रकीर्तिताः इत्येवं तु समुद्दिष्टं भस्म विद्भिर्मुनीश्वराः अथवा मस्तकं बाहुहृदयं नाभिरेव च पञ्चस्थानानि मुन्याहुर्धारणे भस्मविज्जनाः यथा सम्भवनं कुर्यात् देशकालाद्यपेक्षया उद्दूलनेऽपि शक्तेश्च त्रिपुण्ड्रादीनि कारये त्रिनेत्रं त्रिगुणाधारं त्रिदेवजनकं शिवं सनन्वनं शिवायेति ललाटे त्रिपुण्डकम् ईशाभ्यान्नमयित्युक्त्वा पार्श्वयोश्च त्रिपुण्डकम् बीजाभ्यान्नमयित्युक्त्वा धारयितु प्रकोष्ठयोः कुर्यात् पितृभ्यां य उमेशाभ्यां ततोपरि भीमायेति पृष्ठे शिरसः पश्चिमे तथा ॐ